ओम अथ पञ्चमोऽध्यायः बिन्दुकसद्गतिः शौनक उवाच सूतसूत महाभागधन्यस्त्वम् शिवसक्तभिः श्राविदेयम् कथास्माकम् अद्भुता भक्तिवर्धिनी तत्र गत्वा किञ्चकार चञ्चुला प्राप्तसद्गतिः तत्त्वम् वद विशेषेण तत्पतेश्च महामते सूत उवाच सा कदाचिद् उमाम् देवीम् उपगम्य प्रणम्य च सुतुष्टावकरौ बद्ध्वा परमानन्दसम्प्लुता चञ्चुलोवाच गिरिजे स्कन्दमातस्तम् सेविता सर्वदा नरैः सर्वसौख्यप्रदेशम्भुप्रिये ब्रह्मस्वरूपिणी विष्णुब्रह्मादिभिः सेव्या सगुणा निर्गुणापि च त्वमाद्या प्रकृतिः सूक्ष्मा सच्चिदानन्दरूपिणी सृष्टिस्थितिलयकरी त्रिगुणा त्रिसुरालया ब्रह्मविष्णुमहेशानाम् सुप्रतिष्ठाकरा परा सूत उवाच इति स्तुत्वा महेशीम् ताम् चञ्चुलाम् प्राप्तसद्गतिः विररामनतस्कन्धा प्रेमपूर्णा श्रुलोचना ततः सा करुणाविष्टा पार्वती शङ्करप्रिया तामुवाच महाप्रीत्या चञ्चुलाम् भक्तवत्सला पार्वत्युवाच चञ्चुले सखि सुप्रीता नया स्तुत्यास्ति सुन्दरी किम् याचसे वरम् ब्रूहि नादेयम् विद्यते तव सूत उवाच इत्युक्त्वा सा गिरिजया चञ्चुला सुप्रणम्यताम् पर्यपृच्छत सुप्रीत्या साञ्जलिर्नतमस्तका चञ्चुलोवाच मम भर्ताधुना क्वास्ते नैव जानामि सत्तद्गतिम् तेन युक्ता यथाहम् वै भवामि गिरिजे नघे तथैव कुरु कल्याणी कृपया दीनवत्सले महादेवि महेशानी भर्ता मे वृषलीपतिः मत्तः पूर्वम् रथः पापी न जाने काम् गतिम् गतः सूत उवाच इत्याकर्ण्यवचस्तस्याम् चञ्चुलाया हि पार्वती प्रत्युवाच सुसम्प्रीत्या गिरिजा नय वत्सला गिरिजोवाच सुते भर्ता बिन्दुगाक्वो महापापी दुराजयः वेश्या भोगी महामूढो मृत्वा स नरकम् गतः भुक्त्वा नरकदुःखानि विविधान्यमिदाः समाः पापशेषेन पापात्मा विम्भे जातः पिशाचकः इदानीम् च पिशाचोऽस्ति नानाक्लेशसमन्वितः तत्रैव वाद दुष्टः सर्वकष्टवः सदा सूत उवाच इति गौर्यावच श्रुत्वा चञ्चुला सा शुभव्रता पतिदुःखेन महता दुःखितासीतदा किल समाधाय तपश्चित्तम् सुप्रणम्य महेश्वरीम् पुनः पप्रच्छ सा नारी हृदयेन विदूयता चञ्चुलोवाच महेश्वरी महादेवी कृपाम् कुरु ममोपरि समुद्धरपतिम् मेद्य दुष्टकर्मकरम् खलम् केनोपायेन मे भर्ता पापात्मा स कुबुद्धिमान् सद्गतिम् प्राप्नुया देवी तद्वदाशु नमोऽस्तु ते सूत उवाच इत्याकर्ण्यवचस्तस्याः पार्वती भक्तवत्सला प्रत्युवाच प्रसन्नात्मा चञ्चुलाम् स्वसखीम् च ताम् पार्वत्युवाच शृणुयाद् यदि ते भर्ता पुण्याम् शिवकथाम् पराम् निश्चीर्य दुर्गतिम् सर्वाम् सद्गतिम् प्राप्नुयादिति इति गौर्यावच श्रुत्वा अमृताक्षरमथादरात् कृताञ्जलिर्नतस्कन्धा प्रणनाम पुनः पुनः तत्कथा श्रवणम् भर्तुः सर्वपापविशुद्धये सद्गतिप्राप्तये चैव प्रार्थयामास ताम् तदा सूत उवाच तया मुहुर्मुहुर् नार्या प्रार्थ्यमाना शिवप्रिया गौरी कृपान्वितासीत् सा महेशी भक्तवत्सला अद तुम्बुरुमाहूय शिवसत्कीर्तिगायकम् प्रीत्या गन्धर्वराजम् हि गिरिकन्येदमब्रवीत् गिरिजोवाच हे तुम्बुरो शिवप्रीत मम मानसकारक सहानया विन्ध्यजैलम् भद्रम् ते गच्छ सत्वरम् आस्ते तत्र महाघोरः पिशाचो अतिभयङ्करः तद्वृत्तम् शृणु सुप्रीत्यादितः सर्वम् ब्रवीमिते पुरा भवे पिशाचः स बिन्दुगाह्वो भवद्विजः अस्या नार्यापतिर्दुष्टो मत्सख्या वृषलीपतिः स्नानसन्ध्याक्रियाहीनो अशौचः क्रोधविमूढधीः दुर्भक्षो सज्जनद्वेषी दुष्परिग्रहकारकः हिंसकशस्त्रधारी च सव्यहस्तेन भोजनी दीनानाम् पीडकक्रूरः परवेश्मप्रदीपकः चाण्डालभिरतो नित्यम् वेश्या भोगी महाकलः स्वपत्नीत्याकृत्पापि दुष्टसङ्गरतस्तदा तेन वेश्याकुसङ्गेन सुकृतम् नाशितम् महत् वित्तलोभेन महिषी निर्भया जारिणी कृता आमृत्योऽसि दुराचारी कालिने धनम् गतः ययौयमपुरम् घोरम् भोगस्थानम् हि पापिनाम् तत्र भुक्त्वा स दुष्टात्मा नरकानि बहूनि च इदानीम् स पिशाचोऽस्ति विन्ध्येर्ध्रौ पापभुक्खलः तस्याग्रे परमाम् पुण्याम् सर्वपापविनाशिनीम् दिव्याम् शिवपुराणस्य कथाम् कथय यत्नतः धृतम् शिवपुराणस्य कथा श्रवणतः परात् सर्वपापविशुद्धात्मा हास्यति प्रेतताम् चतः मुक्तं च दुर्गते स्तं वै बिन्दुकं त्वं भिषाजकं मदाग्नया विमानेन समानय शिवान्तिकं सूत उवाच इत्यादिष्टो महेशान्यां गन्धर्वेन्द्रश्च तुम्बुरुः मुदेतीव मनसि भाग्यं निजमवर्णयत् आरुह्य सुविमानं स सत्यादत्प्रियया सह यौ विन्ध्याचले सोरं यत्रास्ते नारदप्रियः तत्रापश्यत् पिशाचं तं महाकायं महाहनुं प्रहसन्तं रुदन्तं च वल्गन्तं विकटाकृतिं बलाज्जग्राहतं पाचैः पिशाचं चातिभीकरम् तुम्बुरु शिव सत्कीर्तिर्गायकश्च महाबलीम् अथो शिवपुराणस्य वाचनार्थं स तुम्बुरुः निश्चित्य रचनां चक्रे महोत्सव समन्विताम् पिशाचं तारितुं देव्याः शासना तुम्बुरुर्गतः विन्ध्यं शिवपुराणं स ह्यद्रिं श्रावयितुं परम् इति कोलाहलो जातः सर्वलोकेषु वै महान् तत्र तच्छ्रवणातययुर्देवर्षयो धृतम् समाजस्तत्र परमो अद्भुतश्चासीत् शुभावहः तेषां शिवपुराणस्यागतानां श्रोतुमादरात् पिशाचमधतं पाशैर्बद्ध्वा समुपवेश्य च तुम्बुरुर्वल्लहीयस्तो जगौ गौरीपथे कथाम् आरभ्य संहितामाद्यां सप्तमी संहितावधि स्पष्टं शिवपुराणं हि समाहात्यं समावदत् श्रुत्वा शिवपुराणं तु सप्त संहितमादरात् बभूवुः सुकृतार्थास्ते सर्वे श्रोतार एव हि स पिशाचो महापुण्यं श्रुत्वा शिवपुराणकम् विधूय कलुषं सर्वं जहौ पैशाचिकं वपुः दिव्यरूपो बभूवाचु गौरवर्णसितांशुकः सर्वालङ्कारदीप्ताङ्गत्रिनेत्रश्चन्द्रशेखरः दिव्यं दिव्यवभूत्वा तया स निजकान्तया जगौ स्वयमपि श्रीमां चरितं पार्वतीपतेः तद्वधूम् इति सन्दृष्ट्वा सर्वे देवर्षयश्च ते बभूवुर्विस्मिताश्चित्ते परमानन्दसंयुताः सुकृतार्था महेशस्य श्रुत्वा चरितमद्भुतम् स्वं स्वं धामयुः प्रीत्या संशन्तः शाङ्करं यजः बिन्दुगस्वपि दिव्यात्मा सुविमानस्थितः सुखी स्वकान्ता पार्श्वगः श्रीमान् शुशुभे अतीव हस्तितः अथ गायन् महेशस्य सुगुणान् सुमनोहरान् स तुम्बुरुर्जगामासु सकान्तः शाङ्करं पदम् सुसत्कृतो महेशेन पार्वत्या च स बिन्दुकः स्वगणश्च कृतः प्रीत्या सा भवद्गिरिजा सखी तस्मिल्लोके परानन्दे घनज्योतिषि शाश्वते लब्ध्वा निवासमचलं लभते परमं सुखम् इत्येतत्कथितं पुण्यम् इतिहासम् अघापहम् शिवाशिवपरानन्दं निर्मलं भक्तिवर्धनम् इदं शृणुयाद्भक्त्या कीर्तयेद्वासमाहितः भुक्त्वा विपुलान् भोगान् अन्ते मुक्तिमवाप्नुयात् इति श्रीस्कान्दे शिवपुराणमाहात्ये बिन्दुकसद्गतिवर्णनं नाम पञ्चमोऽध्यायः अथ षष्ठोऽध्यायः ॐ